सर्वेषां संस्कृतकक्षायां स्वागतम्. अहं प्रथमतया मात्रा समं नास्ति शरीरपोषणं, चिन्ता समं नास्ति शरीरशोषणं, मित्रं विना नास्ति शरीरतोषणं, विद्यां विना नास्ति शरीरभूषणं, विद्यां विना नास्ति शरीरभूषणम् इत्युक्ते विद्यया तुल्यं शरीरभूषणम् एव नास्ति. एतदेव भर्तृहरिः, सः अपि उक्तवान्. केयूराणि पुरुषं न विभूषयन्ति, केवलं वाग्भूषणम् एव भूषणम् इति सः उक्तवान्. एतत् अस्माभिः अवगन्तव्यम्. एतत् अस्माभिः अवगन्तव्यं. यः पुरुषः एतत् विषयं जानाति सः एव बुद्धिमान्. इत्युक्ते अत्र विद्या एव भूषणम्. अनन्तरं गते सप्ताहे वयं सर्वनामपदानि कानि, अपि च प्रथमपुरुषे कर्तृपदानि कानि, अपि च वाक्यनिर्माणं कथं करणीयम् इत्येतेषां विषये किञ्चित् अधीतवन्तः. हस्मुख् महोदय, कृपया किञ्चित् म्यूट् करोतु. कृपया म्यूट् करोतु. अत्र गते सप्ताहे वयं सर्वनामपदानि कानि, अपि च प्रथमपुरुषे कर्तृपदानि, अपि च वाक्यनिर्माणम् इत्येतेषां विषये किञ्चित् अधीतवन्तः. अनन्तरं वयम् इदानीं पर्यन्तं क्रियापदम् इति विषये किञ्चित् ज्ञातवन्तः. अधुना अहम् एकम् अन्यं श्लोकं वदामि. अस्मिन् श्लोके बहूनि क्रियापदानि सन्ति, अपि च अस्माकं कर्तव्यं किम्, अस्माकं बुद्धिः कथं विस्तारिता भवति इत्यस्मिन् विषये अस्माकं बोधयति एषः श्लोकः. यः पठति, लिखति, पश्यति, परिपृच्छति पण्डितान् उपाश्रयति, तस्य दिवाकरकिरणैः नळिनीदलम् इव विस्तारिता बुद्धिः. श्लोकः. अस्मिन् श्लोके कविः वदति, अथवा कविः अस्माकं बोधयति यत् यः पण्डितान् उपाश्रयति, परिपृच्छति, पठति, लिखति, पश्यति, तस्य बुद्धिः विस्तारिता भवति. विस्तारिता इत्युक्ते बहुलीकृता भवति, इत्युक्ते हिस् नालेड्ज् विल् बिकम् मल्टिफोल्डेड्. बुद्धिः विस्तारिता भवति. बुद्धिः कथं विस्तारिता भवति? कविः तत्र सादृश्यमपि वदति. यथा दिवाकरकिरणैः नळिनीदलं विस्फुरति, तथा एव तस्य बुद्धिः विस्तारिता भवति. इत्युक्ते यः पण्डितानां पार्श्वे उपविश्य, पण्डितान् उपाश्रित्य पठति, लिखति, पश्यति, परिपृच्छति, तस्य बुद्धिः विस्तारिता भवति इति एतस्य श्लोकस्य अर्थः. इदानीं वयं किं कुर्मः इत्युक्ते, गते सप्ताहे कानिचन क्रियापदानि प्रेषितवती अहं, करपत्रम् ईमेल् माध्यमेन प्रेषितवती. तत्र किमस्ति इति अधुना वयं पश्यामः. अत्र गृहपाठरूपे, हस्मुखमहोदय, भवान् वदति वा गृहपाठः किम् आसीत्?
We have to familiarize ourselves with some words and make small sentences out of them. So, do you want me to do that?
Aam mahode, ekavaram. Atra, asmin karapatre, kriyapadanam avalihi asti. Kriyapadanam avalihi. Avalihi chukte, a row of words. Asmam bhavantah jananti eva, deepavalihi. दीपावलिः इत्युक्ते दीपानाम् आवलिः. अत्रापि अस्मिन् करपत्रे क्रियापदानाम् आवलिः अस्ति. अनन्तरम् अस्मिन् करपत्रे कति क्रियापदानि सन्ति भवान् पश्यति वा कति पदानि सन्ति
the word which matches with Deepavali, that is what you are asking?
Kati chukte, how many words are there in the Karapatram?
36.
36 chukte, Samskrita Bhashayam, Shat Trimshat, Kriyapadani, Aspin Karapatre Santi. Anantram, Padani, Atra, आवलिद्वयम् अस्ति तत्र फस्ट् रो अण्ड् सेकेण्ड् रो फस्ट् रो वर्ड्स् दे आर् इन् विच् लकारः भवान् जानाति वा विच् लकारः
द फस्ट् अण्ड् द सेकेण्ड् गोस् अण्ड् रीड्स् रैट् गच्छति पठति
अस्तु
महोदय
किं वक्तुमिच्छति प्रथम आवलिः अस्ति लट् लकाररूपाणि लट् लकाररूपम् इत्युक्ते प्रेसेण्ट् टेन्स् वर्ड्स्
दिस् इस् दि फस्ट् लट् लकार नो इट्स् इन् रिवर्स् आर्डर् इन् संस्कृत् सो द थर्ड् पर्सन् इस् द फस्ट् वन् रैट्
अत्र अहं किं वक्तुमिच्छामि चेत् गच्छति पठति पतति क्रीडति वदति एतानि पदानि लट्लकारे सन्ति इत्युक्ते दे आर् आल् इन् प्रेसेण्ट् टेन्स् अनन्तरं अनन्तरं गच्छतु पठतु पततु क्रीडतु वदतु एतानि पदानि लोट्लकारे सन्ति अत्र प्रथमपदं लट्लकारे अस्ति द्वितीयपदं लोट्लकारे अस्ति अनन्तरम् अधुना वयं किं कुर्मः इत्युक्ते एकम् एकं क्रियापदं स्वीकृत्य कानिचन वाक्यानि रचयामः प्रथमं पदं गच्छति इति पदं स्वीकृत्य कानिचन वाक्यानि रचयतु
एकः प्रश्नः सन्देहः लट्लकार अपि लोट्लकार भेदः कः
लट्लकारः इत्युक्ते प्रेसेण्ट् टेन्स् वर्ब् लोट्लकारः इत्युक्ते आज्ञार्थे अथवा प्रार्थनार्थे तस्य उपयोगः भवति वेन् यु आर् रिक्वेस्टिङ्ग् सम्बडि आर् वेन् यु आर् डिमाण्डिङ्ग् आर् आर्डरिङ्ग् सम्बडि टु डू सम्थिङ्ग् यु आर् सपोस् टु यूस् लोट्लकार But latlakar is a normal present tense verb. Avagachiti va bhagini?
Aam bhagini.
Anantram. Mahodaya, bhavan karotu. Ekam kriyapadam svikrutya, kanichana vakyan rachimaha. Bhavan janati eva, kanichana kartrupadani, sarvanama padani, sarvani api upayujya vakya rachanam kurmaha. Bhavan janati eva, esha saha, esha, सा एतत् तत् भवान् भवति किमपि कर्तृपदं योजयित्वा वाक्यं रचयतु
ट्रै
महोदय प्रयत्नं करोतु
सः गच्छति सा पठति
महोदय तथा नास्ति भवान् कर्तुम् इच्छति चेत् गच्छति इति एव क्रियापदं स्वीकृत्य अष्टवाक्यानि रचयतु सः गच्छति एषः गच्छति तथा
ऐ सी सो यु वाण्ट् मी टु मेक् आल् आफ् देम् स्टार्टिङ्ग् वित् सा ओर् एष एष सः गच्छति एषः पठति
अहं प्रदर्शयामि सः गच्छति एषः गच्छति सा गच्छति एषा गच्छति तत् गच्छति एतत् गच्छति भवान् गच्छति भवती गच्छति तथा इदानीं पठति इति क्रियापदं स्वीकृत्य वदतु
So I'll try with patati now. So eshaha patati, esha patati, etat patati, सः पठति सा पठति तत् पठति भवान् भवान् इस् इन् फार्म् आफ् एन् एड्रेस् न सो भवान् गच्छतु और् भवान् गच्छति ओन्लि
भवान् पठतु अधुना वयं केवलं केवलं वर्तमानकालरूपाणि उपयुज्य वाक्यरचनां कुर्मः
ओके सो भवान् पठति एण्ड् भवती पठति
उत्तमम् अस्मिन् वाक्ये पदद्वयमस्ति एषः पठति एषः एकं पदं पठति अन्यत् पदम् अस्मिन् पदे कर्ता कर्तृपदमस्ति अपि च क्रियापदं परन्तु कर्मपदं नास्ति There is no object of the sentence in this sentence, in these sentences. So, what we can do is, we can add an object to these sentences and we can create sentences once again. Yadi bhavan gacchati iti kriyapadam svikrutya karmapadam api yojayitva vakyarachanam kurmaha. Aham apanam yeshaha apanam gacchati.
What is that? Apanam means?
A shop, store.
Oh.
Adhuna aham grandhalayaha iti padam dadami. Grandhalayaha.
Eshaha grandhalayam gacchati.
Uttamam. Vittakoshaha.
Eshaha.
Vittakoshaha ichukta bank.
Bank. Etaha vittakosham. Gacchati, it becomes more, na? It becomes, vittakoshaha becomes vittakosham, isn't it?
Uttamam. Ichyukte tatra vittakoshaha iti pradhama vibhakti rupam, vittakosham dvitiya vibhakti rupam. Anantaram prakoshtaha. प्रकोष्ठः किमपि कर्तृपदं स्वीकरोतु अनन्तरं कर्मसहितवाक्यं रचयतु इत्युक्ते यु आर् यूसिङ्ग् एनी सब्जेक्ट् एनी वर्ड् एस् अ सब्जेक्ट् अण्ड् यूस् द प्रकोष्ठः इति एस् कर्मपदम् अण्ड् क्रियेट् अ सेण्टेन्स्
रामः पाठशालां नने रामः पुस्तकं पठति
केवलं गच्छति गच्छति करोतु महोदय
गच्छति ओन्लि ओके सो विच् वर्ड् यू सेड् विच् इस् द लास्ट् वर्ड् यू सेड् विच् ऐ हव् टु कन्वर्ट् इट् इन्टु ऑब्जेक्ट्
प्रकोष्ठः
प्रकोष्ठः सः प्रकोष्ठं गच्छति
उत्तमं प्रकोष्ठं प्रकोष्ठः इत्युक्ते रूम्
रूम्
रूम् आश्रमः आश्रमः इति करोतु
सा आश्रमं गच्छति
उत्तमं विदेशः
भवान् विदेशं गच्छति
उत्तमं धन्यवादः महोदय अनन्तरं लक्ष्मीभगिनी भवती करोति वा द्वितीयं पदं
पठतु
पठति
पठति बालकः ग्रन्थं पठति
उत्तमम् अत्र प्रथमतया कर्मपदरहितवाक्यं वदतु अनन्तरं कर्मपदसहितवाक्यं वदतु
बालकः पठति बालकः ग्रन्थं पठति
उत्तमम् अनन्तरं श्लोकः
बालकः श्लोकं पठति
संस्कृतं
बालकः संस्कृतं पठति
बालिका कथा
बालिका संस्कृतं पठति
बालिका ग्रन्थः
बालिका ग्रन्थः ग्रन्थं पठति
उत्तमं महिला रामायणं
महिला रामायणं पठति
वृद्धा भगवद्गीता
वृद्धा भगवद्गीतं पठति
पुनः
वृद्धा भगवद्गीता पठति
भगवद्गीतां पठति किमर्थं भगवद्गीता इति आकारान्तस्त्रीलिङ्गपदं वयं द्वितीयाविभक्तौ तस्य उपयोगं कुर्मः अधुना अनन्तरं बालिका पाठः करोतु.
बालिका पाठं करोति.
पुनः पठति, पठति उपयुज्य.
पठति, पठति. बालिका पाठं पठति.
उत्तमं. पुत्री कविता.
पुत्री सविता पठति.
कविता, कविता भगिनी.
ओके. पुत्री कवितां पठति.
उत्तमं. गायकः सङ्गीतविद्या.
गायकः सङ्गीतविद्यां पठति.
उत्तमं. पण्डितः अष्टाध्यायी.
पण्डितः अष्टाध्यायीं पठति.
उत्तमम्. अनन्तरं वृद्धः काव्यं.
वृद्धः काव्यं पठति.
उत्तमं. धन्यवादः भगिनी. हसुक् महोदय कृपया म्यूट् करोतु. अत्र बहु ध्वनिः अस्ति. कृपया. अनन्तरं पद्मिनी भगिनी भवती करोति वा तृतीयम्?
आम्.
प्रथमं कर्मरहितवाक्यं, कर्मपदरहितवाक्यम्, अनन्तरं कर्मपदसहितवाक्यं वदतु.
All the eight instances or
करोतु भगिनि.
एषः पतति, सः पतति, एषा पतति, सा पतति, एतत् पतति, तत् पतति, भवान् पतति, भवती पतति.
उत्तमम्. एतानि पदानि सर्वनामपदानि. अधुना इदानीं पर्यन्तं भवती केवलं सर्वनामपदानि उपयुज्य वाक्यं रचितवती. अनन्तरम् अधुना अहं कानिचन नामपदानि ददामि. ऐ एम् गिविङ्ग् यू नौन्स्.
ओके.
सो फार् यू हेव् क्रियेटेड् द सेण्टेन्सेस् यूसिङ्ग् प्रोनौन्स्. नौ यू आर् गोयिङ्ग् टु क्रियेट् सेण्टेन्सेस् वित् नौन्स्. फलं, फलं पतति. पत्रं,
पत्रं पतति.
पुष्पं,
पुष्पं पतति.
विमानं,
विमानं पतति.
कङ्कणं,
कङ्कणं पतति.
कारयानं,
कारयानं पतति.
आभरणं,
आभरणं पतति.
धनं,
धनं पतति.
पुस्तकं.
केन ऐ से पुस्तकं भूमे पतति.
भूमौ पतति.
ओ, भूमौ पतति.
अनन्तरं पर्णं,
पर्णं पतति.
पर्णम् इत्युक्ते किं जानाति वा?
न.
पर्णमित्युक्ते पत्रम्.
ओ,
तदर्थमेव पर्णशाला. पर्णशाला इति पदं भवती जानाति एव. अनन्तरं पर्णं. उत्तमं भगिनि. अनन्तरं श्रीरम्या भगिनी भवती करोति वा? धन्यवादः भगिनि. श्रीरम्या भगिनी करोतु. अनन्तरं क्रीडति, क्रियापदम् उपयुज्य.
एषः क्रीडति, एषा क्रीडति, एतत् क्रीडति, सः क्रीडति, सा क्रीडति, तत् क्रीडति, भवान् क्रीडति, भवती क्रीडति.
सः अनन्तरं किं क्रीडति? अहं पृच्छामि किं क्रीडति इति कर्मपदमपि योजयित्वा वदतु.
आं भगिनि. सः फुट्बाल् क्रीडा क्रीडति.
उत्तमम्. अहं वदामि पादकन्दुकक्रीडा.
पादकन्दुकक्रीडा. सः पादकन्दुकक्रीडा क्रीडति.
पुनः वदतु.
सः सः पादकन्दुकक्रीडायां
क्रीडां क्रीडति
पादकन्दुकक्रीडां क्रीडति सः पादकन्दुकक्रीडां क्रीडति.
अहं कानिचन पदानि ददामि, भवती करोतु. इत्युक्ते अत्र चतुरङ्गं पदम् उपयुज्य वदतु. बालकः चतुरङ्गं,
बालकः चतुरङ्गं क्रीडति.
उत्तमं. चतुरङ्गम् इत्युक्ते
चेस्.
उत्तमम्. अनन्तरं यष्टिक्रीडा,
बालिका यष्टिक्रीडां क्रीडति.
यष्टिक्रीडा इत्युक्ते हाकि. अनन्तरं पाञ्चालिका,
बालकः पाञ्चालिकेन क्रीडति.
पाञ्चालिकया सह क्रीडति. पाञ्चालिकया. अनन्तरं कन्दुकं, बालकः कन्दुकं.
बालकः कन्दुकायां क्रीडति.
अत्र पश्यतु भगिनि, कन्दुकः इति पुंलिङ्गपदं, कन्दुकेन क्रीडति इति भवति. अनन्तरं क्रीडनकं, क्रीडनकम् इत्युक्ते टाय्. बालकः शिशुः क्रीडनकं.
शिशुः क्रीडनकेन क्रीडति.
उत्तमम्.
शिशुः क्रीडनकेन क्रीडति.
अनन्तरं शकटिका, शकटिका इत्युक्ते कार्ट्, टाय् कार्ट्.
शकटिका.
वदतु. बालिका शकटिका.
बालिका शकटिकायां क्रीडति.
शकटिकया क्रीडति.
शकटिका.
उत्तमं
भगिनि.
अनन्तरं वदतु.
एकः प्रश्नः अस्ति. कया इत्युक्ते किं विभक्ति?
तृतीयविभक्ति भगिनि.
तृतीयविभक्ति. पूर्वं द्वितीयविभक्ति उपयुज्य वाक्यानि वदति खलु भगिनि. इदानीं किं तृतीयविभक्ति उपयुज्य सिमिलर् वाक्यं वदामि?
अत्र चतुरङ्गं क्रीडति तत्तु समीचीनं, परन्तु अत्र कन्दुकेन क्रीडति अथवा पाञ्चालिकया क्रीडति अथवा क्रीडनकेन क्रीडति तदेव समीचीनं रूपं. केवलं तत्र पूर्वस्मिन् अत्र पूर्वस्मिन् वाक्ये केवलं सः क्रीडां क्रीडति इति वदामः, परन्तु अत्र अस्मिन् वाक्ये केन सह क्रीडति इति वदामश्चेत्, यु आर् मोर् स्पेसिफिक् अबौट् विच् टाय् यु आर् यूसिङ्ग् अण्ड् विच् थिङ्ग् यु आर् यूसिङ्ग् वैल् प्लेयिङ्ग्. पूर्वस्मिन् वदतु.
द्वे विभक्ति समीचीनम् अस्ति इदानीं.
पूर्वस्मिन् वाक्ये द्वितीयाविभक्तिः समीचीनं, परन्तु अस्मिन् वाक्ये तृतीयाविभक्तेः उपयोगं कृत्वा वाक्यरचनां कुर्मः.
ओके. धन्यवादः
भगिनि. कन्दुकेन इन् दिस् वर्ड् केन् ऐ से कन्दुक सः क्रीडति?
कन्दुकेन क्रीडति एव समीचीनं रूपं. कन्दुकेन सह इति सम्यक् नास्ति अहं चिन्तयामि. किमर्थं चेत् तत्र कन्दुकेन इति वदामश्चेत् तत्र अर्थः सम्यक् भवति. यदि अहं मित्रेण सह गच्छामि, पुत्र्या सह गच्छामि, अनन्तरं बालकेन सह गच्छामि इति, सः पुरुषः वा अथवा मनुष्यः अस्ति चेत् तत्र एव वयं सः इति अपि उपयुज्य तृतीयाविभक्तेः उपयोगं कुर्मः. अत्र केवलं कन्दुकः अपि च तथा अस्ति चेत् तत्र केवलं कन्दुकेन इति वदामश्चेत् पर्याप्तं. सिम्प्लि सेयिङ्ग् कन्दुकेन इस् क्वैट् इनफ्. यु डोण्ट् अब्सल्यूट्लि नीड् टु यूस् सः. जनरली वेन् एवर् यु आर् सेयिङ्ग् ऐ एम् गोयिङ्ग् वित् मै फ्रेण्ड्, ऐ एम् गोयिङ्ग् वित् मै डाटर्, सर्टन् सेण्टेन्सेस् नो वित् इन् दोस् सेण्टेन्सेस् यु आर् सपोस् टु यूस् अहं मित्रेण सह गच्छामि. But in both the sentences, you are using the same tritiya vibhakti. Parantu, yadi manushya asti chet, tatra saha iti api upayoga bhavati. Parantu, kevalam kandukena kridame tadeva samyak bhavati. Saha iti padasya avashyakata na asti. Avagatavati va? Uttamam. अनन्तरं धन्यवादः भगिनी, श्रीरम्या भगिनी. अनन्तरं राजीवसिंह महोदय, भवान् करोति वा अनन्तरं?
वदति, एषः वदति, सः वदति, एषा वदति, सा वदति, एतत् वदति, तत् वदति, भवान् वदति, भवती वदति.
उत्तमम्. अनन्तरम् अहं कानिचन पदानि ददामि. कर्मपदमपि योजयित्वा वदतु. श्लोकः
अहं श्लोकः वदामि.
पुनः चिन्तयित्वा वदतु.
अहं श्लोकं वदामि.
उत्तमं. संस्कृतं
सः संस्कृतं वदति.
उत्तमम्. अनन्तरं बालकः कविता.
बालकः कवितां वदति.
उत्तमं. अनन्तरं बालिका वार्ता.
बालिका वार्तां वदति.
उत्तमम्. अनन्तरं वृद्धः विषयः.
वृद्धः विषयः वदति.
पुनः?
वृद्धः विषयः विषयां वदति.
वृद्धः विषयं वदति.
विषयं वदति.
पुत्री महोदय, विषयं मीन्स् सम् टापिक्. न्यूस् कैण्ड् आफ् समाचारः. अनन्तरं पुत्री समाचारः.
पुत्री समाचारः वदति.
पुनः वदतु महोदय.
पुत्री समाचारं वदति.
उत्तमम्. धन्यवादः महोदय. अनन्तरं सुब्बाराव महोदय, अनन्तरं पिबति इति क्रियापदम्.
पिबति. एषः पिबति, सः पिबति, एषा पिबति, सा पिबति.
भवान् पिबति न श्रूयते महोदय. We can't hear you.
I think you got dropped off.
Disconnected, probably.
Astu, astu. Anantram, Geeta Bhagini, bhavati karoti va? Pibati?
Am.
Karoti.
Likati. सः लिखति, एषः लिखति, सा लिखति, एषा लिखति, तत् लिखति, एतत् लिखति, भवान् लिखति, भवती लिखति.
उत्तमम्. अनन्तरं कर्मपदं कर्मपदं योजयित्वा वदतु. श्लोकः
भवती श्लोकं लिखति.
अनन्तरं वृद्धः पुस्तकं.
वृद्धः पुस्तकं लिखति.
भक्तः गीतं.
भक्तः गीतं लिखति.
अनन्तरं कविता.
कविता इस् द नेम् आफ् द पर्सन्.
न न अध्यापकः.
अध्यापकः कवितां लिखति.
उत्तमम्. यात्रिकः सूचना.
सूचनां
लिखति. लिखति वद.
अद्य यात्रिकः सूचनां लिखति.
उत्तमम्.
वाट् इस्
पण्डितः? इन्स्ट्रक्षन्.
ओ, इन्स्ट्रक्षन्.
सूचना. अनन्तरं कविः काव्यं.
कविः काव्यं लिखति.
पण्डितः भाष्यं.
पण्डितः भाष्यं लिखति.
अनन्तरं अधिकारी निबन्धः.
अधिकारी निबन्ध. वाट् इट् इस् निबन्धनं?
निबन्धः इत्युक्ते रूल्स्.
अधिकारी निबन्धं लिखति.
उत्तमं. यदि बहुवचने वदामश्चेत्?
यस्,
बहुवचने निबन्धाः इति
निबन्धाः. नृपाः निबन्धाः लिखन्ति.
अधिकारी इति एव पदम् उपयुज्य निबन्धः इति पदस्य बहुवचनरूपम् इत्युक्ते पूर्वं भवती उक्तवती अधिकारी निबन्धं लिखति.
अधिकारी निबन्धाः लिखति.
पुनः
निबन्धः निबन्धौ निबन्धा नो नो सारि सारि निबन्धं निबन्धौ निबन्धान्. ओके, अधिकारी निबन्धान् लिखति.
उत्तमं. धन्यवादः भगिनि.
धन्यवादः.
अनन्तरं शङ्करन् महोदय, भवान् करोति वा? अनन्तरं नयति. अस्ति वा महोदय?
अस्ति अस्ति भगिनि.
नयति. अस्मि अस्मि अहम् अस्मि अहम् अस्मि. अत्र पश्यतु महोदय, अहं
लिखति अथवा नयति अस्ति भगिनि.
नयति. नयति इति पदं स्वीकृत्य वदतु.
नयति. सः नयति. सा नयति. एषः नयति. एषा नयति. भवान् नयति. भवती नयति. एतत् नयति. तत् नयति.
सम्यक् न श्रूयते महोदय. सम्यक् न श्रूयते.
परन्तु गां नयति.
सम्यक् न श्रूयते.
हलो, मै वाय्स् इस् नाट् क्लियर्.
नास्ति महोदय.
ऐ विल् ट्रै मै इण्टर्नेट् कनेक्षन् मेडम्. वन् मिनिट्
महोदय. सम्पर्कः सम्यक् नास्ति, पुनः आगच्छतु. पुनः वदामि महोदय, पुनः आगच्छतु. सम्पर्कः सम्यक् नास्ति, कनेक्ट् इस् नाट् गुड्. सुब्बाराव् महोदय, भवान् करोति वा? पुनः आगतवान् वा?
प्लीस्
शङ्करन् महोदय करोतु.
गां नयति, बालकः नयति, बालिका नयति, वृद्धा नयति, गायकः नयति.
नयति इत्युक्ते किम्? अत्र नयति इत्युक्ते किम्?
नयति मीन्स् टु ब्रिङ्ग् केरीस्.
उत्तमम्. अनन्तरम् अहं कर्मपदानि, कर्मपदमपि उपयुज्य वाक्यरचनां करोतु. धनं बालकः धनं नयति तथा धनं. अनन्तरं चित्रं, बालिका चित्रं
नयति, बालिका नयति, शिष्याः गां नयति,
शाटिका
महिलाः शाटिका मीन् शर्ट्, शर्ट् मीन् शर्ट् ओन्लि यु नो. बालाः,
अहं महोदय अत्र शृणोतु, अहं कर्मपदं ददामि, भवान् कर्मपदम् उपयुज्य वदतु. अहं ददामि शाटिका, शाटिका इत्युक्ते सारि. शाटिका इति पदम् उपयुज्य वदतु.
महिलाः शाटिका नयति.
यन्त्रं,
पण्डितः यन्त्रं नयति.
उत्तमं. जलम्,
आचार्याः जलं नयति.
पुष्पं,
रामः पुष्पं नयति.
फलानि,
बालिकाः अनेकपुष्पाणि नयति. अनेकानि पुष्पाणि नयति.
उत्तमम्, उत्तमं महोदय, धन्यवादः. अनन्तरं वसुप्रदा भगिनी, भवती करोति वा? पश्यति
भगिनी. भगिनी एकप्रश्नः, एकनिमिष. महिला शाटिकां नयति वा शाटिका नयति?
शाटिकां नयति.
शाटिका, ओके.
शाटिका, सारी, शाटिकां नयति. वसुप्रदा भगिनी, भवती करोति वा?
ऐ हेव् अ क्विक् क्वशन्.
वदतु महोदय.
नयति, इट् आल्सो मीन्स् टु लीड्, रैट्?
नयति इस् केरियिङ्ग्.
It doesn't, we cannot connect with leading a group, leading a project.
अत्र पश्यतु, अत्र वाक्यानि पश्यतु, किञ्चित् परिशीलयतु. अहं धनं नयामि, अहं शाटिकां नयामि, अहं जलं नयामि, अहं पुस्तकं नयामि, सा महिला फलानि नयति, एषः चित्रं नयति, सः वस्त्रं नयति, तथा. नयति इत्युक्ते क्यारि.
धन्यवादः.
तावदेव, तावदेव. सुप्रदा भगिनी करोतु.
अस्तु भगिनि. पश्यति इति पदानि,
पश्यति, पश्यति इत्युक्ते किं भवती जानाति वा? पश्यति इत्युक्ते
पश्यति, एषः पश्यति, एषा पश्यति, सः पश्यति, सा पश्यति, भवान् पश्यति, भवती पश्यति. पदं ददाति वा भगिनी?
उत्तमं बालिका माता बालिका माता
बालिका मातां पश्यति
अत्र भगिनि बालिका मातरं पश्यति इति वदामः
मातरं पश्यति
किमर्थं चेत् माता इति पदं ऋकारान्तपदम् अतः माता इति पदस्य द्वितीया विभक्ति एकवचनं मातरं
मातरं
तदर्थमेव वयं वदामः वन्दे मातरम्
अस्तु भगिनि
तदर्थमेव अहं मातरं वन्दे पितरं वन्दे भ्रातरं वन्दे तथा एव तदर्थमेव वन्दे मातरम् इति स्लोगन् आगतं तथा भारतमातां भारतमातरं वन्दे अनन्तरं जननी बालिका
जननी बालिकां पश्यति
प्रेक्षकः अभिनेत्री
प्रेक्षकः अभिनेत्रीं पश्यति
नटः प्रेक्षकाः
नटः प्रेक्षकां पश्यति
पुनः प्रेक्षकाः इति बहुवचने अत्र पश्यतु भगिनि प्रेक्षकाः इति पदं बहुवचने अस्ति एकवचने प्रेक्षकः बहुवचने प्रेक्षकाः प्रेक्षकाः पश्यतु भगिनि अत्र प्रेक्षकाः इति पदस्य द्वितीया विभक्ति बहुवचनं रूपम् आवश्यकम् तत् किम्
प्रेक्षकां पश्यति
कोऽपि वदति वा प्रेक्षकाः इति पदस्य
प्रेक्षकान्
उत्तमं करोतु भगिनि वसुप्रदा भगिनि प्रेक्षक
अध्यापकः प्रेक्षकान् पश्यति
उत्तमं गृहिणी भिक्षुकः
गृहिणी भिक्षुकान् पश्यति
अत्र एकवचनं वदामि भिक्षुकः
गृहिणी भिक्षुकां पश्यति
भिक्षुकं पश्यति किमर्थं चेत् अत्र भिक्षुकः पुरुषः
भिक्षुकं पश्यति
भक्तः देवी
भक्तः देवीं पश्यति
अनन्तरं भिक्षुकः बिडालः बिडालः इत्युक्ते क्याट्
क्याट्
भिक्षुकः बिडालः
भिक्षुकः बिडालं पश्यति
उत्तमम् आङ्ग्लभाषायां वदतु तत् किं बेगर् साद क्याट् उत्तमं भगिनि धन्यवादः अनन्तरं शायरवळि भगिनी भवती करोति वा पृच्छति शायरवळि भगिनी अस्ति वा नो चेत् अत्र वंशी सुधा भगिनी भवती करोतु करोतु
पृच्छति सः पृच्छति सा पृच्छति एषः पृच्छति एषा पृच्छति भवतः पृच्छति भवता पृच्छति
पुनः वदतु पुनः वदतु भगिनि पुनः वदतु
सः पृच्छति सा पृच्छति एषः पृच्छति एषा पृच्छति भवान् पृच्छति भवती पृच्छति
तदेव समीचीनं भवतः इति पदं भिन्नं भवतः इत्युक्ते भवान् शब्दस्य षष्टिरूपं तथा न वक्तव्यम् अनन्तरम् अत्र पृच्छति इत्युक्ते किं वदतु आङ्ग्लभाषायां
आस्किङ्ग्
उत्तमम् अत्र अहं कर्मपदं ददामि भवती वाक्यं रचयतु छात्रः अध्यापकः
छात्रः अध्यापकं पृच्छति
जनकः पुत्रः
जनकः पुत्रं पृच्छति
पुत्री माता
पुत्री मातरं पृच्छति
धनिकः सेवकः
धनिकः सेवकं पृच्छति
बालिका उत्तरं
बालिका उत्तरं पृच्छति महिला वार्तां पृच्छति अहं सख्यां
पृच्छामि
सखीं पृच्छामि
उत्तमम् अहं मार्गः
अहं मार्गं पृच्छामि
अहं कथा
अहं कथां पृच्छामि
अहं सूचना
अहं सूचनां पृच्छामि
अहम् अधुना अहम् एकम् अन्यं वाक्यं वदामि बालकः बालकः अध्यापकं सूचनां पृच्छति इति वाक्यं पश्यतु अध्यापक बालकः अध्यापकं सूचनां पृच्छति अस्मिन् वाक्ये कर्मपदद्वयमस्ति अध्यापकः बालकः अध्यापकं पृच्छति अपि च बालकः सूचनां पृच्छति एकस्मिन्नेव वाक्ये एकस्मिन्नेव वाक्ये कर्मपदद्वयमस्ति अत्र बालकः अध्यापकं सूचनां पृच्छति इत्युक्ते पृच्छति इति क्रियापदं द्विकर्मकक्रियापदम् इति वदामः इत्युक्ते अस्मिन् वाक्ये कर्मपदद्वयमस्ति एकमस्ति प्रधानकर्मपदम् अन्यत् पदमस्ति गौणकर्मपदम् इति वदामः द्विकर्मकवाक्येषु कर्मपदद्वयं सम्भवति एकं प्रधानकर्मपदं गौणकर्मपदम् इति वदामः इत्युक्ते प्रैमरि आब्जेक्ट् सेकेण्डरि आब्जेक्ट् आफ् द सेण्टेन्स् कर्मपदम् इत्युक्ते आब्जेक्ट् आफ् द सेण्टेन्स् मेन् वर्ब् अण्ड् सेकेण्डरि वर्ब् मेन् आब्जेक्ट् अण्ड् सेकेण्डरि आब्जेक्ट् पृच्छति इति क्रियापदं कर्मपदद्वयं स्वीकरोति कानिचन क्रियापदानि कर्मपदम् एव न स्वीकुर्वन्ति यथा अस्ति इति पदं कर्मपदं न स्वीकरोति तथा एव हसति कर्मपदं न स्वीकरोति परन्तु कानिचन क्रियापदानि कर्मपदं स्वीकुर्वन्ति उत्तमं भगिनि अनन्तरं वंशी सुधा भगिनी भवती करोति
वा भवतु भवती क्रियापदमेव एकविंशति भवती भवतु
सम्यक् नास्ति
कोऽपि शब्दः मम एव नास्ति न श्रूयते
भगिनि श्रूयते भगिनि
इदानीमेव किञ्चित् सम्यक् न श्रूयते किं करोमि
पुनः आगच्छतु भवती करोतु अनन्तरं भगिनि करोतु सीता नो चेत् हस्मुख् महोदय भवान् करोतु अनन्तरं
वाट् इस् इट् यु वाण्ट् मी टु डू
अनन्तरं भवति इति परमस्ति
ओके
भवति एकं वाक्यं रचयतु अत्र Pavati.
What subject and object to be used for Pavati?
Yatha yesha bhavati, yesha bhavati iti apu vaktum shaknumaha. Atra bhavati iti padam kriyapadam karmapadam na svikaroti. Atra karmapadam vina eva vakyam rachaniyam. That means it won't accept the object. This is a kind of unique verb.
Right, yeah. So,
it won't affect the object. It is akarmaka kriyapadam.
Okay.
Atah, milati iti padam svikrutya vadati mahodaya.
Okay, milati. So, eshaha milati. Esha milati. Etat milati. Actually, we can't say etat milati, no, because non-animate object cannot be meeting somebody. So we have to only say Eshaha milati, Esha milati, Saha milati, Sa milati. But we can't say.
Mata putri.
Mata putrim milati.
Uttamam. Sakhi mitram.
Sakhi, and what is the second word?
Mitram.
Okay. Sakhi mitram milati.
Putraha pita.
Putraha pitam milati.
Uttamam. Anantram.
Hello. Hello. Can't hear you. Pagini, you got disconnected.
I think she's disconnected. The problem in the line. You need to wait. She reconnect back.
We're sorry, but some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible.
No. Bhagini?
There is some temporary disturbance. I can't hear.
अनन्तरं वृद्धः अधिकारः
अधिकारं त्यजति
वदतु महोदय
No, I lost connection in between. So now you're asking somebody else to say something, right?
Yeah, I'll come back to you.
Okay.
Sure.
Okay.
Okay. Samir Mahadeya, vadatu.
Anant. Vruddha adhikara tejati.
Anantram, balakaha karyam.
Balakaha karyam tejati.
अनन्तरं महिला शपथं
कुड् यु रिपीट् दट् प्लीस्
महिला शपथं
वाट् इस् द मीनिङ्ग् आफ् शपथं
शपथम् इत्युक्ते तदेव
महिला
न त्यजति उत्तमम् अनन्तरम् अत्र त्यजति इत्युक्ते किं वदतु
गिवप्
त्यजति गिवप् त्यजनं त्यजति उत्तमम् अनन्तरं हस्मुखमहोदय भवान् करोति वा अधुना अनन्तरं खादति
ओके केन् यु गिव मी सब्जेक्ट् एंड ऑब्जेक्ट
खादति बालकः अन्नं
बालकः अन्नं खादति
बालिका रोटिका
बालिका रोटिकेन खादति इज इट रोटिकेन नो नो
रोटिका रोटिका
बालिका रोटिकां खादति और रोटिकेन खादति
रोटिका
इज इट प्लूरल अच्छा इट इज प्लूरल स्टिल इट इज
महोदय अत्र रोटिका इति पदम् आकारान्त स्त्रीलिङ्गपदं रोटिका इति पदस्य द्वितीयाविभक्ति एकवचनं रूपम् आवश्यकम् अत्र अतः रोटिका रोटिकाम् इति भवति अनन्तरं बालकः मिष्टान्नं
बालकः मिष्टान्नं खादति
महिला शाकः
महिला शाकं खादति
शाकः इत्युक्ते
वेजिटेबल्स्
उत्तमं बालकः पायसं
बालकः पायसं खादति पायसम् इस् डेसर्ट् नो खीर्
आं महोदय अनन्तरं बालकः लड्डुकं
बालकः लड्डुकं खादति
उत्तमः धन्यवादः महोदय अनन्तरं वंशीसुधा भगिनी भवती पुनः आगच्छति वा
आं भगिनि इदानीं न श्रूयते भगिनि
सम्यक् श्रूयते जानाति इति करोतु
आम् पदं वाक्यं वदामि भगिनि
वदतु वदतु
भवती मां जानातु वा
पुनः वदतु पुनः करोतु
भवती मां जानातु खलु या जानातु वा किं शुद्धं भगिनि
भवती मां जानाति खलु
जानाति वा द्विहे द्विवाक्येन किं शुद्धं वाक्यं
पश्यतु पश्यतु भवती मां जानाति खलु समीचीनं तथा एव भवती मां जानाति वा न वा
जानाति वा जानातु वा
जानाति जानाति एव किमर्थं जानाति इति पदं लट्लकारे अस्ति जानातु लोट्लकारे अस्ति लोट्लकारः इत्युक्ते आज्ञार्थे वा प्रार्थनार्थे वा भवती मां जानाति वा भवती मां न जानाति वदतु अनन्तरम् अहं पदद्वयं ददामि बालकः मार्गः
बालकः मार्गं जानाति
वृद्धः रामायणं
वृद्धः रामायणं जानाति
उत्तमम् वृद्धा भारतं
जानाति
भवती संस्कृतं
जानाति
अहम् आङ्ग्लभाषा
जानामि
उत्तमं भवत्याः गृहं
भवत्याः गृहं जानामि
अनन्तरं अहम् अभ्यासपुस्तकम्
जानामि
उत्तमं भवती ग्रन्थं
भवती ग्रन्थं जानामि
पुनः
भवती ग्रन्थं जानाति
प्रश्नवाचकवाक्यं वदतु
भवती ग्रन्थं जानाति वा
उत्तमम् अन्यत् रूपेण अपि वक्तुं शक्नुमः जानाति वा
अन्यत् रूपेण किं भगिनि
भवती जानाति किम् भवती ग्रन्थं जानाति वा समीचीनं अपि च भवती ग्रन्थं जानाति किम् इत्यपि समीचीनम् उत्तमं धन्यवादः भगिनि इदानीं पर्यन्तं
भगिनि एकः प्रश्नः सम्यक् अव्ययं वा समीचीनम् अव्ययम् इदानीं द्वये सम्यक् समीचीनं भेदः किं भगिनि
सम्यक् समीचीनं द्वे अपि समानार्थकपदे एव परन्तु समीचीनम् इति पदं विशेषणत्वेन अपि उपयोगः भवति इत्युक्ते ग्रन्थः समीचीनः अनन्तरं फलं समीचीनं समीचीना इत्युक्ते त्रिषु लिङ्गेषु अपि भवितुमर्हति समीचीनम् इति पदं परन्तु सम्यक् इति पदम् अव्ययत्वेन तस्य रूपपरिवर्तनं न भवति अव्ययपदम् अत्र वयं सर्वे मिलित्वा इदानीं पर्यन्तं पञ्चदश क्रियापदानि पठितवन्तः अग्रे अपि क्रियापदानि सन्ति परन्तु अग्रिमे सप्ताहे वयं पुनः एकवारम् अन्यानि क्रियापदानि योजयित्वा वाक्यरचनां कुर्मः अधुना अत्र स्थगयामः विल् प्रोसीड् टु सम् अदर् टापिक् नौ अनन्तरम् अत्र अहम् अत्र एकं किञ्चित् वक्तुमिच्छामि भवन्तः सर्वे श्रुतवन्तः एव एषः श्लोकः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् एषः श्लोकः प्रसिद्धश्लोकः अनन्तरं यदि वयं ज्येष्ठानां नमस्कारं कुर्मः चेत् ते आशीर्वादं ददति कथम् अपुत्राः पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु सज्जनाः सन्तु निर्भयाः इत्यपि अस्मिन् अहमपि कक्षायां कदाचित् वदन्ती अस्मि भवान् पठतु भवती पठतु भवती शृणोतु भवान् चिन्तयतु भवान् सम्यक् उच्चारयतु भवान् पुनः स्मारयतु अथवा भवती पुनः वदतु इति अहं कक्षायां यदा कदा वदन्ती अस्मि इत्युक्ते एतानि सर्वाणि वाक्यानि अपि लोट् लकारे सन्ति एतेषु अत्र श्लोकेषु अपि कानिचन पदानि लोट् लकारे सन्ति तथा एव वयं सर्वे भगवद्गीतां जानीमः भगवद्गीतायाम् अपि बहूनि पदानि लोट् लकारे सन्ति मध्यमपुरुषे एकवचने बहूनि पदानि दृश्यन्ते तत्र भगवद्गीतायां भगवान् कृष्णः अर्जुनं प्रति वदति अर्जुनम् उद्दिश्य सः वदति किं वदति कृष्णः तत्र आचार्यः आचार्यः इत्युक्ते यः आचरति सः आचार्यः इत्युक्ते यः आचरणं कृत्वा अन्यम् उपदिशति सः उत्तमः आचार्यः तादृश आचार्यः कृष्णः अनन्तरम् अर्जुनः शिष्यः परन्तु उत्तमशिष्यः अतः गीतायां कृष्णः अर्जुनं प्रति वदति अर्जुन एतत् करोतु एतत् मा करोतु तत् करोतु तत् मा करोतु तथा भगवद्गीतायां कृष्णः अर्जुनं प्रति वदति अतः भगवद्गीतायां बहूनि पदानि लोट्लकारे भवन्ति अधुना वयमपि किञ्चित् लोट्लकारस्य अभ्यासं कुर्मः सर्वे भगवद् अभ्यासपुस्तके अत्र त्रयोदशपुटं त्यक्त्वा पञ्चदशपुटं प्रति गच्छन्तु इत्युक्ते 2.4 आभागे तत्र किमस्ति इति पश्यामः चतुर्दशे पुटे 2.4 आभागे तत्र किमस्ति लोट्लकारस्य अभ्यासं कुर्मः सर्वेषां पार्श्वे अस्ति वा चतुर्दशपुटं पुटः
आं भगिनि
भवान् पठतु महोदय अत्र किमस्ति चित्रे
आं भगिनि
शङ्करन् महोदय भवान् करोति वा इदानीं पर्यन्तं पूर्वं सम्पर्कः सम्यक् नास्ति अतः भवान् एव करोतु
अवश्यं भगिनि
करोतु
एतत् एषः एषा एतत् सः सा तत् भवान् भवति एतैः सह एतेषाम् उपयोगं करोतु
महोदय अहम् एकं वक्तुमिच्छामि अत्र चतुर्दशे पुटे पेज् 14 2.4 भागे
ओ चतुर्दशे पुटे पञ्चदशे पुटे भगिनि
ओ पञ्चदशे पुटे तत्र उपविशतु उत्तिष्ठतु इति पदानि सन्ति पश्यति वा
अस्ति
उपविशतु उत्तिष्ठतु
तत्र उपविशतु उत्तिष्ठतु
अत्र भवान् अवगतवान् वा अत्र चित्रे किम् अस्ति इति अवगतवान् वा
अहं प्रयत्नं करोमि भगिनि
अत्र सः पुरुषः वदति महोदय अत्र उपविशतु इति वदति अनन्तरं कक्षायाम् अध्यापकः द्वितीयचित्रे अध्यापकः वदति भवान् उत्तिष्ठतु इति वदति द्वितीयचित्रे अनन्तरं किमस्ति इति पठतु अत्र एका सूचना अस्ति सूचनां पठतु एतेषां क्रियापदानां
एतेषां क्रियापदानां प्रार्थनारूपाणि आज्ञारूपाणि लिखतु यथा गच्छति गच्छतु पठति पठतु क्रीडति क्रीडतु खादति खादतु हसति हसतु मिलति मिलतु करोति करोतु आगच्छति आगच्छतु लिखति लिखतु पिबति पिबतु नयति नयतु पश्यति पश्यतु तिष्ठति तिष्ठतु
भवति महोदय भवति भवतु अनन्तरम् अत्र कर्तृपदम् अपि योजयित्वा वदतु
पाठं पठति रामायणं पठति
न न अत्र रामायणं पठति उत्तमं लोट्लकारे वदतु
रामायणं पठतु बालः क्रीडतु रामः बालिः खादतु
महिला
हसतु मित्रः मिलतु
मित्रं मिलतु
ओ मित्रं धन्यवाद क्षम्यतां भगिनी मित्रं मिलतु
अत्र पश्यतु महोदय मित्रः इत्युक्ते सूर्यः मित्रम् इत्युक्ते फ्रेण्ड्
फ्रेण्ड्
मित्रः इत्युक्ते सन्
मित्रं पुल्लिङ्गम् अथवा स्त्रीलिङ्गम् एकशब्दमेव वा मित्रमेव वा
मित्रं मित्रमेव अथवा सखी स्त्रीलिङ्गे वदामश्चेत् सखी अपि पर्यायवाचकपदमस्ति
ओ
परन्तु मित्रः इत्युक्ते सन् मित्रम् इत्युक्ते फ्रेण्ड्
ओ
अनन्तरं करोतु करोतु इति पदम् उपयुज्य वदतु
करोतु
कार्यं बालकः
बालः पठनं करोतु
उत्तमम् अनन्तरं लिखतु ग्रन्थः
लिखतु बालकः ग्रन्थः लिखतु
जलं बालकः जलं
जलं जलं पिबतु बालकः जलं पिबतु शिक्षा
पेटिका पुरुषः पेटिका
पुरुषः पेटिका नयतु
पेटिकां नयतु
ओ पुरुषः पेटिकां
नयतु भगिनी हेव अ डाउट
वदतु भगिनी
Lot Lakara means if you are requesting or ordering. So you are speaking to someone, right? So how can we say Mitram Milatu, like Mitram Milatu means, oh friend, please meet me, or friend, meet what? I don't understand, Bhagini.
Mitram Milatu ita samichinam eva, Bhagini.
I think it is like Tvam Milatu or Uyam Milatu, like that. But Mitram Milatu or Balakaha Milatu.
Yeah, Yadha Vayam Kartum Shaknamaha. Yeshaha Milatu, Yesha Milatu, Etani Vak Tadhapi Rachetum Shaknamaha.
Okay.
Tatra Samichinameva, Vakim Samichinameva. अनन्तरं नयति महोदय नयति
नयति
पेटिका
शिष्यः गां नयति रामायणपुस्तकं पश्यति
पश्यतु इति उपयुज्य वदतु
पश्यतु
रामायणं पश्यतु
रामायणं पश्यतु
तिष्ठति अनन्तरं तिष्ठति
अश्वं तिष्ठतु
भवतु अनन्तरं
रामः भवतु
भवतु उत्तमम् अनन्तरम् अधुना वयं धन्यवादः महोदय अनन्तरं वयं तृतीयकरपत्रे एका कथा अस्ति कथां पठामः सर्वे तृतीयं करपत्रम् उद्घाटयन्तु तत्र एका विनोदिका अस्ति सर्वेषां पार्श्वे अस्ति वा करपत्रं
ददातु
ददातु गृह्णातु. कः करोति अत्र? समीर महोदय, भवान् करोति वा?
I will try.
करोतु, पठतु.
एका विनोदिका.
विनोदिका इत्युक्ते
ह्यूमरस् प्ले.
उत्तमं. या कथा हास्यं जनयति, या कथा विनोदार्थं पठामः, सा एव विनोदिका. पठतु. ददातु
गृह्णातु.
गृह्णातु तथा एव उच्चारणीयं. किमर्थं तथा इत्युक्ते तत्र एकः नियमः अस्ति. तत्र हकारं लिखित्वा अणकारं लिखामः, परन्तु परम्परया एका प्रथा अस्ति. सा तया प्रथया वयं प्रथमं नकारम् उच्चारयित्वा हकारम् उच्चारणीयम्. प्रथमतया णकारं तत्र उच्यते. Even though it was written like gruhnatu, even though it is written that way, we are supposed to pronounce it as gruhnatu. Pathatu mahodaya.
Dadatu gruhnatu. Kaschan grama tatra eka krupanah asti. सः कदापि किमपि न ददाति. एकदा सः कृपणः अन्यग्रामं
गन्तुम्
इच्छति. मध्ये नदी अस्ति, तत्र नौका अस्ति, नाविकः अपि अस्ति. कृपणः नौकायाम अपविश्यति.
उपविश्यति.
नौकया नविकेन सह कृपणः गच्छति.
भवान् अवगतवान् वा कथायाः अर्थम्? परिच्छेदस्य अर्थः कः? नो चेत् वयम् अधुना एकमेकं वाक्यं स्वीकृत्य अवगन्तुं शक्नुमः. अत्र कश्चन ग्रामः, कश्चन इति पदम् अव्ययं. कश्चन ग्रामः, एकः ग्रामः अस्ति, परन्तु तस्य नाम किं वयं न जानीमः. देर् इस् ए विलेज् बट् वि डोण्ट् नो दट् नेम् आफ़् दट् विलेज्. अतः कश्चन ग्रामः. अनन्तरं तत्र एकः कृपणः अस्ति, तस्मिन् ग्रामे एकः कृपणः अस्ति. कृपणः इत्युक्ते कोऽपि जानाति वा कृपणः इत्युक्ते कः? मैसर् इत्युक्ते अत्र पश्यन्तु, यस्मिन् कृपा नास्ति सः कृपणः. अवगच्छन्ति वा? यस्मिन् दया नास्ति, कृपा नास्ति, सः एव कृपणः. इत्युक्ते कृपणः कस्मैश्चिदपि किमपि कदापि न ददाति, सः एव कृपणः. इत्युक्ते तस्मिन् कारुण्यं नास्ति, अतः कृपणः. सर्वे अवगतवन्तः वा कृपणः इत्युक्ते किम्? समीर महोदय, भवान् अवगतवान् वा?
आं भगिनि.
उत्तमं. तृतीयं वाक्यं, सः कदापि किमपि न ददाति. एकदा सः कृपणः अन्यं ग्रामं गन्तुमिच्छति. इत्युक्ते सः अन्यं ग्रामं गन्तुम् इष्टवान्. हि वाण्टेड् टु गो टु द अदर् विलेज्. तदर्थं सः किं करोति? परन्तु तत्र मध्ये नदी अस्ति, तत्र नौका अस्ति, नद्यां नौका तरति नाविकः अपि अस्ति नाविकः किं करोति वदतु महोदय
नाविका नौकाचालकः
उत्तमं नाविकः नौकां चालयति सः नौकया नाविकेन सह कृपणः गच्छति नाविक कृपणः केन सह गच्छति विथ् हूम् दिस् कृपणः वेण्ट् कृपणः नाविकेन नाविकेन सह गच्छति
गच्छति
कृपणः गच्छति उत्तमं वंशीसुधा भगिनी
भगिनि इदानीम् अत्र सः उपयुज्य अवश्यं या न अवश्यं भगिनि
उत्तमम् उत्तमः प्रश्नः नाविकेन सह गच्छति अत्र पुरुषः अस्ति अतः नाविकेन सह गच्छति इति सम्यक् नाविकेन गच्छति इति न वदामः
पुरुषः एव
अत्र कन्दुकेन क्रीडामि नाविकेन सह गच्छामि भवती एव करोतु द्वितीयपरिच्छेदः
यदा नौका किञ्चित् दूरं गच्छति तदा निसर्गकोपः भवति वायुः वेगेन वहति नौका आन्दोलयति कृपणः भीतः भवति नद्यां पतति सः तरणं न जानाति नाविकः तं पश्यति वदति च भोः हस्तं ददातु हस्तं ददातु इति परन्तु एषः तु कृपणः कदापि किमपि न ददाति एव नाविकः बुद्धिमान् सः चिन्तयति वदति च भोः हस्तं गृह्णातु हस्तं गृह्णातु इति कृपणः झटति हस्तद्वयेन नाविकस्य हस्तं गृह्णाति नौकयाः अन्तः आगच्छति
अवगतवती वा अधुना किञ्चित् किञ्चित् एकमेकं वाक्यं स्वीकृत्य वदामः यदा नौका किञ्चित् दूरं गच्छति तदा निसर्गकोपः भवति निसर्गकोपः इत्युक्ते
वेदर् द आङ्ग्रि वेदर्
नेचुरल् क्लैमेटि
अहं पदविच्छेदनं कृत्वा
भगिनि अत्र निसर्गः इति पदात् नैसर्गिक इति रूपम् आगच्छति इत्युक्ते प्रकृत्यां कोपः इत्युक्ते प्रकृतेः कोपः अभवत् इत्युक्ते तत्र किम् अभवत् प्रतिकूलवायुस्थितिः अभवत् तथा एव वायुः वेगेन वहति वायोः चलनम् अभवत् तदा किं भवति नौका आन्दोलयति आन्दोलयति इत्युक्ते किम् अत्र पश्यतु भगिनि संस्कृतभाषायाम् आन्दोलिका इत्युक्ते स्विङ्ग् तदर्थमेव आन्दोलयति इत्युक्ते इट् इस् स्विङ्गिङ्ग् फ्रम् सैड् टु सैड् इट् इस् मूविङ्ग् फ्रम् सैड् टु सैड् नौका डोलायते अथवा नौका आन्दोलयति इत्युक्ते इतस्ततः चलति सम्यक् न चलति जले नौका सम्यक् न गच्छति अनन्तरं तदा किं भवति कृपणः भीतः भवति कृपणः भीतः भवति भीतः इत्युक्ते यस्मिन् भीतिः अस्ति सः भीतः भीतिः इत्युक्ते भीतिः इत्युक्ते भयं कृपणे भीतिः अस्ति अतः सः भीतः अभवत् अनन्तरं भीतः भूत्वा नद्यां पतति परन्तु सः तरणं न जानाति तरणम् इत्युक्ते उत्तमं भवन्तः सर्वे एकं वाक्यं जानन्ति संसारतरणोपायः नास्ति इति भवन्तः जानन्ति एव सर्वे वदन्ति ज्येष्ठाः वदन्ति संसारतरणोपायः नास्ति इति तत्र तरुणोपायः इति न तरणोपायः तरणं संसारस्य तरणं तरति इति क्रियापदात् तरणम् इति ल्यूट् रूपम् आगतम् अत्र कृपणः तरणं न जानाति इत्युक्ते तस्य पार्श्वे तरणोपायः नास्ति अतः नाविकः तं पश्यति दृष्ट्वा किं वदति भोः हस्तं ददातु हस्तं ददातु इति वदति ददातु इति लोट्लकारः परन्तु यशः तु कृपणः एषः तु कृपणः इत्युक्ते सः कदापि किमपि न ददाति तदर्थं सः हस्तमपि न ददाति अधुना अतः नाविकः किं करोति नाविकः तु बुद्धिमान् न तु अथवा प्राप्तकालज्ञः सः किं कर्तव्यम् इति जानाति सः नाविकः सः प्राप्तबुद्धिः नाविकः अतः सः चिन्तयित्वा किं वदति भोः हस्तं गृह्णातु हस्तं गृह्णातु इति वदति इत्युक्ते सः नाविकः प्राप्तकालज्ञः अतः झटिति कृपणः हस्तद्वयेन नाविकस्य हस्तं गृह्णाति नौकायाः अन्तः आगच्छति अत्र झटिति झटिति इत्युक्ते किं झटिति इत्युक्ते सत्वरं तत्क्षणं सकृत् अथवा अचिरात् एतानि पर्यायवाचकपदानि सः झटिति हस्तद्वयेन नाविकस्य हस्तं गृह्णाति नौकायाः अन्तः आगच्छति अनन्तरं कथायां
इन् दिस् परन्तु एषः तु कृपणः वाट् इस् द मीनिङ्ग् आफ् तु
तु इत्युक्ते तस्य विशिष्ट अर्थः नास्ति केवलं पादपूरणार्थं योजयामः अथवा एम्फाटिक् वर्ड् वेन् यु वाण्ट् टु एम्फसैज़् सम् फ्याक्ट् यु आर् सपोस् टु यूस् तु अत्र रचय कविः किं वक्तुमिच्छति इत्युक्ते एषः कृपणः अतः हस्तं न ददाति एषः तु कृपणः दट् मीन्स् इन् दट् सेण्टेन्स् हि वाण्टेड् टु एम्फसैज् दट् हि इस् ए कृपण हि इस् अ मैसर् सो तु इस् एम्फाटिक् वर्ड् अनन्तरं कथायाः नीतिः कः वदति गीता भगिनी करोति वा
you should give you know it should not be a miser if then it comes to your own detriment if you don't give
uttamam ichukte yaha krupana asti tadrushah ma bhavatu कृपणस्य कृपणः इव मा भवतु तादृशः मा भवतु यदा कदापि किञ्चित् दानं करोतु दानेन एव पुण्यं लभ्यते संस्कृतभाषायां पुण्यम् इति पदमस्ति पुण्यम् इत्युक्ते पुनाति इति पुण्यम् इत्युक्ते अस्मान् पवित्रीकरोति पुण्यं पुण्येन वयं पवित्रीकरोति अस्माकम् इत्युक्ते दानेन एव पुण्यं लभ्यते तदर्थमेव यदा कदापि किञ्चित् दानं करोतु तदर्थमेव वयं सर्वे जानीमः सर्वदा शास्त्राणि वदन्ति दानं करोतु तथा एव एकं श्लोकमस्ति अन्नदानं महादानं विद्यादानम् अतः परम् अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया एकं श्लोकमपि अस्ति तदर्थमेव कृपणः मा भवतु सर्वदा किञ्चित् दानं करोतु तथा कृपणः मा भवतु एकः नीतिः अनन्तरं नाविकं दृष्ट्वा किं ज्ञातुं शक्नुमः इफ् यु लुक् एट् द नाविकः
पुनः एकवारं वदतु महोदय तत् श्लोकम्
अन्नदानं महादानं विद्यादानमतः परम् अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया. अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया इत्युक्ते विद्यया यावज्जीवं तृप्तिः भवति. परन्तु अन्नं खादनेन केवलं क्षणिका तृप्तिः भवति. अन्नदानं महादानमेव, परन्तु विद्यादानम् अतः इतोपि तृप्तिकरम् अतः परम् अतोपि अधिकम्. अनन्तरम् अत्र नाविकः अस्ति. नाविकः नाविकं दृष्ट्वा वयं किं ज्ञातुं शक्नुमः?
नाविकः
वदतु.
बहु चतुरः कृपणः मनसे किम् अस्ति जानाति, अतः ददतु इति वाक्यं न शक्यते. अतः गृह्णातु इति पदम् उपयुज्य कृपणः रक्षयति.
उत्तमम्. इत्युक्ते अत्र नाविकः इव अन्येषां जनानां साहाय्यं करोतु. नाविके समयस्फूर्तिः अस्ति, सः प्राप्तकालज्ञः अथवा सः बुद्धिमान् भूत्वा कार्यं कृतवान्. सः कृपणस्य रक्षणं कृतवान्. तथा एव वयमपि किञ्चित् प्रयत्नं कृत्वा अन्येषां जनानां साहाय्यं कुर्मः. अनन्तरं केवलं पञ्चनिमिषात् पर्यन्तम् अत्र एकं सम्भाषणमस्ति, तं सम्भाषणं पठामः. भवन्तः इच्छन्ति चेत् सर्वेषां पार्श्वे समयः अस्ति वा नास्ति वा, विरमामः वा?
मया गन्तव्यं भगिनि, मम पुत्रिका पाठशालां गच्छति.
उत्तमं, गच्छतु भगिनि. सर्वेषां पार्श्वे समयः अस्ति चेत् पठामः, नो चेत् अग्रिमे.
एकः प्रश्नः अस्ति महोदय. एकदा पदम् अव्ययं वा?
अहं चिन्तयामि. आं भगिनि,
झटिति अव्ययम्.
अत्र एकं भगिनि, अत्र सम्भाषणम् अत्र आवश्यकं मास्तु पर्याप्तम् इति पदत्रयमस्ति. तस्य विषये एकं सम्भाषणमस्ति, तदपि पठामः वा अथवा सर्वे गन्तुमिच्छन्ति वा? यु आल् वाण्ट् टु लीव् आर् शुड् बि कण्टिन्यू वित् द कान्वर्सेशन्?
अहं गन्तुमिच्छामि भगिनि.
सर्वेषाम् अस्तु भगिनि, अधुना कालातीतः अभवत्, समापयामः. अग्रिमे सप्ताहे मिलामः.
नमस्कारं भगिनि. धन्यवादः.
धन्यवादः.
नमस्कारः.